अथ विंशः पाठः। व्यासेन नामैकेन मुनिना विरचिते महाभारते पञ्चानां पाण्डोः पुत्राणां धार्तराष्ट्रशतेन सह समरः कथ्यते। पांडवानां ज्येष्ठो युधिष्ठिराभिधानश्चतुर्भिर्भ्रातृभिः सह स्वराज्यं दुर्योधनहृतं पुनर्जितवान्। कुरुक्षेत्रयुद्धे क्षत्रियाणां बहुसहस्राणि हत्वा पञ्च पाण्डवा दुर्योधनमूचुः राजन्दुष्टानि शतान्यकरोः। त्वेकोऽसि ततो नो राज्यं देहीति स तु भ्रातॄणामेकेन सह युद्धं पप्रच्छ। अथ भीमेन प्रत्युक्तमहं त्वया सह गदया युत्स्यामीति। ततो द्वौ वीरौ चिरं युयुधतुर्भीमेन च दुर्योधनो हतः।